इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। प्रधानमंत्री श्री नरेन्द्र मोदी प्रोक्तवान् यत् कृषिक्षेत्रे प्रौद्योगिकी संस्कृतिम् आनेतुं सर्वकारः महद्बलं ददाति। ह्यः कृषिः ग्रामीण परिवर्तनञ्च इत्यस्मिन् विषये दृश्यसम्मेलनद्वारा आयव्यय प्रतिवेदनोत्तर अन्तर्जालीय सत्रं सम्बोधयन् श्रीमोदी अवदत् यत् केन्द्रसर्वकारः एग्रेस्टेक् इत्यस्य माध्यमेन कृषिकार्यस्य कृते डिजिटल सार्वजनिक मूलसंरचनायाः विकासं कुर्वन्नस्ति।
एमएसपी में हुए रिफॉर्म से अब किसानों को डेढ़ गुना तक रिटर्न मिल रहा है। इंस्टीट्यूशनल क्रेडिट कवरेज 75% से अधिक हो चुका है। पीएम फसल बीमा योजना के तहत लगभग 2,00,000 करोड़ रुपए के क्लेम सेटल किए गए हैं। ऐसे अनेक प्रयासों से किसानों का रिस्क बहुत कम हुआ है और उन्हें एक बेसिक इकोनॉमिक सिक्योरिटी मिली है।
प्रधानमन्त्रिणा उल्लेखितं यत् प्रधानमन्त्री किसान सम्मान निधेः कारणेन दशकोटि कृषकेभ्यः 4,00,000 करोड़ रूप्यकाणि प्राप्तानि सन्ति तथा च प्रधानमन्त्री फसल बीमा योजना इत्यस्य अन्तर्गतं प्रायः 2,00,000 करोड़ रूप्यकाणां बीमा प्रतिवेदनानां समाधानं कृतमस्ति। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य पश्चिमबंगस्य डार्जिलिंग इत्यस्य यात्रायां भविष्यति। स्वस्य भ्रमणकाले राष्ट्रपतिः नवम अन्ताराष्ट्रिय सन्तल सम्मेलनस्य शोभां वर्धयिष्यति। लोकसभायां सोमवासरे सभापतेः ओम बिरला इत्यस्य अविश्वास प्रस्तावस्य विचारः भविष्यति। बजट सत्रस्य द्वितीयं चरणम् अस्य मासस्य नवम दिनांकात् आरप्स्यते। गतमासे बजट सत्रस्य प्रथमचरणस्य अवसरे विपक्षेण लोकसभायाः महासचिवस्य समक्षम् अविश्वास सूचना प्रदत्ता आसीत्, यत्र सभापतिः पक्षपातपूर्णरूपेण कार्यं कृतवान् इति आरोपं कृत्वा तस्य निष्कासनं याचितमासीत्। अस्मिन् कांग्रेस समाजवादी पार्टी डीएमके वामदलम् इत्यादिभिः सदस्यैः सह 18-100 सांसदाः हस्ताक्षरं कृतवन्तः आसन्। भाजपा कांग्रेस इत्यादि राजनैतिक दलैः स्वसदस्येभ्यः 9-10 दिनांकयोः सदने अनिवार्य उपस्थितेः निर्देशः प्रदत्तः। केन्द्रीय गृह एवं सहकारिता मन्त्री अमित शाहः ह्यः ओडिशानगरे 37,00,000 करोड़ रूप्यकाणां विकास परियोजनानां उद्घाटनम् आधारशिला स्थापनञ्च कृतवान्। एतेषु राष्ट्रिय दुग्ध विकास मण्डलस्य ओडिशा राज्य सहकारी दुग्ध निर्मात्र संघस्य विकास परियोजनाः अथ राज्य सर्वकारस्य विविधाः परियोजनाः अपि अन्तर्भवन्ति। श्रीशाहः भारतीय कृषक उर्वरक सहकारिता नियमित घटकस्य तृतीय सल्फ्यूरिक आम्ल संयंत्रस्य उद्घाटनमपि कृतवान्। आन्तरिक सुरक्षायाः विषये श्रीशाहः प्रोक्तवान् यत् केन्द्रेण वामपक्षीय उग्रवादस्य उन्मूलनार्थं तीव्राः प्रयत्नाः कृताः। अस्य मासस्य अन्तः यावत् देशः नक्सलवादात् मुक्तः भविष्यति इति विश्वासम् अपि प्रकटितवान्। विदेशमन्त्री डॉ एस जयशंकरः नवदिल्ल्याम् उप रैसिना संवादं विभिन्न देशानां नेतृभिः सह मिलितवान्। डॉ जयशंकरः ह्यः श्रीलंका भूतान मॉरिशस कीन्या माल्ता सेशल्स रवांडा देशानां स्वसमकक्षैः सह द्विपक्षीय वार्तां कृतवान्। भारतीय रेलवे विगत दशके रेलवे मार्गाणां विद्युतीकरणस्य कार्यम् अतिवेगेन सम्पाद्य आयात डीजल इन्धनस्य उपरि तस्य निर्भरतायाः न्यूनीकरणस्य कार्यम् अकरोत्। फलस्वरूपेण अधुना ब्राडगेज रेलमार्गस्य 99.4% विद्युत्करणं जातमस्ति, यत् विश्वस्य बृहत्तमेषु आधारभूता संरचनेषु अन्यतममस्ति। वाणिज्य उद्योगमन्त्री पीयूषगोयलः रक्षा अन्तरिक्षक्षेत्रे भारतस्य स्टार्टअप पारिस्थितिकी तन्त्रस्य तीव्र उत्थानस्य विषये प्रतिपादितवान्। मन्त्री अवोचत् यत् एतत् परिवर्तनं देशस्य एमएसएमई संस्थाभिः चालितं भवति, याः संस्थाः भारतीय नवाचारं वैश्विक आपूर्ति श्रृंखलासु एकीकृत्य स्थापयन्ति। श्रीगोयलः भारतस्य विनिर्माण क्षेत्रस्य उन्नयनं शासनस्य नीतेश्च भूमिका इत्यस्मिन् विषये नवदिल्ल्याः राष्ट्रिय रक्षा महाविद्यालये सभां सम्बोधितवान्। बैडमिंटन क्रीडायां लक्ष्यसेनः गतरात्रौ क्वार्टर फाइनल क्रीडायां चीनदेशस्य ली शिफेंगं पराजितवान् इति वार्ताः।